अस्य श्रीरुद्राध्याय प्रश्न महामन्त्रस्य अघोर ऋषिः अनुष्ठुप् छन्दः सङ्कर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता नमः शिवायेति बीजम् शिवतरायेति शक्तिः महादेवायेति कीलकम् श्रीसाम्ब सदाशिवप्रसादसिद्ध्यर्थे जपे विनियोगः ॐ अग्निहोत्रात्मने अङ्गुष्ठाभ्याम् नमः ॐ दर्शपूर्णमासात्मने तर्जनीभ्याम् नमः ॐ चातुर्मास्यात्मने मध्यमाभ्याम् नमः ॐ निरूढपशुबन्धात्मने अनामिकाभ्याम् नमः ॐ ज्योतिष्ठोमात्मने कनिष्ठिकाभ्याम् नमः ॐ सर्वक्रत्वात्मने करतलकरपृष्ठाभ्याम् नमः ॐ अग्निहोत्रात्मने हृदयाय नमः ॐ दर्शपूर्णमासात्मने शिरसे स्वाहा ॐ चातुर्मास्यात्मने शिखायै वषट् ॐ निरूढपशुबन्धात्मने कवचाय हुम् ॐ ज्योतिष्ठोमात्मने नेत्रत्रयाय वौषट् ॐ सर्वक्रत्वात्मने अस्त्राय भट् ॐ भूर्भुवस्तु वरोमिति दिग्बन्धः ध्यानम् आपातालनभस्तरान्तभुवन ब्रह्माण्डमाविस्फुरत् ज्योतिस्फाटिकलिङ्गमौलिविलसत्पूर्णेन्दुवान्तामृतैः अस्तोकापुतमेकमीशमनिशम् रुद्रानुवाकाम् जपेत् ध्यायेदीप्सितसिद्धये ध्रुवपदम् विप्रोभिषिञ्चेच्छिवम् ब्रह्माण्डम् व्याप्तदेहा भसितहिमरुचाभासमाना भुजङ्गैः कण्ठे कालाक्कपद्दात् कलितशशिकलाश्चण्डकोदण्डहस्ताः त्र्यक्षारुद्राक्षमाला सुललितवपुषस्याम्भवा मूर्तिभेदाः रुद्राश्रीरुद्रसूक्तप्रकटितविभवानः प्रयच्छन्तु सौख्यम् ॐ शं च मे मयश्च मे प्रियं च मेनुकामश्च मे कामश्च मे सौमनसश्च मे भद्रं च मे श्रेयश्च मे वश्यश्च मे यशश्च मे भगश्च मे द्रविणं च मे यन्ता च मे धत्ता च मे क्षेमश्च मे धृतिश्च मे विश्वं च मे महश्च मे संविच्च मे ज्ञात्रं च मे सूश्च मे प्रसूश्च मे क्षीरम् च मे लयश्च मरुतम् च मे मृतम् च मे यक्ष्मम् च मे रामयश्च मे जीवातुश्च मे दीर्घायुत्वम् च मे न मित्रम् च मे भयम् च मे सुगम् च मे शयनम् च मे शूषा च मे सुदिनम् च मे ॐ शान्ति शान्ति शान्तिः ॐ नमो भगवते रुद्राय नमस्ते रुद्रमन्यवभूतो दिशवे नमः नमस्ते अस्तु धन्वने बाहुभ्यामुदते नमः या दिशुः शिवतमा शिवम् बभूवते धनुः शिवाशरव्या या द्रवतया नो रुद्रमुडया या ते रुद्रशिवा तनूरघोरा पापकाशिनी तया नस्तनुवासन्तमया गिरिशन्ताभिचाकसीः यामिषुम् गिरिशन्तहस्तेऽपि भर्जस्तवे शिवाम् गिरित्रताम् कुरु माहि पुंसे पुरुषम् जगत् शिवेन वचसा त्वा गिरिशाच्छा वदामसि यथा नः सर्वमिज्जगद यक्ष्मकुम् सुमना असत् अध्यवोचदधि भक्ता प्रथमो दैन्योऽभिषक् अहीरिश्च सर्वान् जम्भयम् सर्वाश्च यातु धान्यः असौ यस्ताम्रो अरुण उद बभ्रुस्तु मङ्गलः ये चेमागुं रुद्र अभितो दिक्षु श्रिता सहस्रशो वैशागुम्हेरयीमहे असंयो वसर्पति नीलग्रीभो विलोहितः उदैनम् गोप अदृशन्नदृशन्नुदहार्यः उतैनम् विश्वाभूतानि स दृष्टो मृडयातिनः नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीभुषे अधो ये अस्य सत्त्वानोऽहम् तेभ्यो गरम् नमः प्रमुञ्च धन्वनस्त्वमुभयो रात्रियोद्याम् याश्च देहस्तविषवः पराता भयमोवप अवतत्यथनुस्त्वगुम् सहस्राक्षसतेषु ते निशील्य शल्यानाम् मुखा शिवो न सुमना भव विद्यम् धनुः कपद्दिनो विशल्यो बाणवागुम्भुत अनेशन्नस्येषव आहुरस्य निषङ्गतिः याते हेतिर्मीढुष्टमहस्ते बभूवते धनुः तयास्मान्विश्वतस्त्वमयक्ष्मया परिद्भुजा नमस्ते अस्त्वायुधाय नाथकाय धृष्णवे उभाभ्यामुदते नमो बाहुभ्याम् तव धन्वने परिते धन्वनो हेतिरस्मान्नृणक्तु विश्वतः अथो यतिषुधिस्तवारे अस्मन्निधेहितम् नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्रयम्बकाय त्रिपुरान्तराय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः नमो हिरण्यमाहवे सेनान्ये दिशाम् जपतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमो नमः सस्पिञ्जराय द्विषीमते पथीनाम् पतये नमो नमो बभ्रुजाय विव्याहिनेन्नानाम् पतये नमो नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमो नमो भवस्य हेत्ये जगत् ताम् पतये नमो नमो रुद्रायातकाविने क्षेत्राणाम् पतये नमो नमः सूताय हन्त्याय वनानाम् पतये नमो नमो रोहिताय स्थपतये वृक्षाणाम् पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमो नमो भुवन्तये वारिवस्तृताय औषधीनाम् पतये नमो नम उच्चैर्घोषाय क्रन्दयते वक्तीनाम् पतये नमो नमः कृत्स्नवीताय धावते सत्त्वनाम् पतये नमः नमः सहमानाय निव्याधिन आम् व्याधिनीनाम् पतये नमो नमः ककुभाय निषङ्गिणे सेनानाम् पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणाम् पतये नमो नमो वञ्चते परिवञ्चते स्थायूनाम् पतये नमो नमो निचेरवे परिचरायारण्यानाम् पतये नमो नमः शृगाविभ्यो जिघा सद्भ्यो मुष्णताम् पतये नमो नमो सिमद्भ्यो नरक्तम् चरद्भ्यः प्रकृतानाम् पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमो नम इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आदन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमोऽस्यद्भ्यो विद्यद्भ्यश्च वो नमो नमो नम आसीनेभ्यश्च यानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नमस्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्यो स्वपदिभ्यश्च वो नमः नम आव्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नमवुगणाभ्यस्त्रिगुंहतीभ्यश्च वो नमो नमो वृक्षेभ्यो वृक्षपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथिभ्यो रथेभ्यश्च वो नमो नमो रथेभ्यो रथपतिभ्यश्च वो नमो नमः सेनाभ्यश्चेनानिभ्यश्च वो नमो नमः शत्रुभ्यः सङ्ग्रहीतृभ्यश्च वो नमो नमस्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्ठेभ्यो निषादेभ्यश्च वो नमो नम इषुकृभ्यो धन्वकृभ्यश्च वो नमो नमो मृगयुभ्यश्वनिभ्यश्च वो नमो नमः स्वभ्यस्वपदिभ्यश्च वो नमः नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युक्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शितिभीष्टाय च नमो मीहुष्टमाय चेषुमते च नमो पर्श्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्धने च नमो अग्र्याय च प्रथमाय च नम आशदे चाधिराय च नमः शीघ्र्याय च शीभ्याय च नमः पूर्ण्याय चावस्वन्याय च नमः श्रोतस्याय च दीप्याय च नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुद्ध्याय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नमः उर्वर्याय च कल्याय च नमः श्रोत्याय चामसाम्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च नमः आशुषेणाय सुरथाय च नमः सूराय चावभिन्दते च नमो वर्मिणे च वरूधिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च नमो दुन्दुभ्याय च हनन्याय च नमो धृष्णवे च प्रभृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे जेषुधिमते च नमस्तीक्ष्णेषवे च युधिने च नमः स्वायुधाय च सुधन्वने च नमः श्रुत्याय च वत्याय च नमः कात्याय च नीत्याय च नमः सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कूप्याय च वत्याय च नमो वर्ष्याय च वर्षाय च नमो मेघ्याय च विद्युत्याय च नम ईद्रियाय च तप्याय च नमो वात्याय च रेश्म्याय च नमो वास्तव्याय च वास्तुभाय च नमः सोमाय च रुद्राय च नमस्ताम्राय च अरुणाय च नमः शृङ्गाय च पशुपतये च नमः उग्राय च भीमाय च नमो अग्रे वधाय च दूरे वधाय च नमो हन्ते च हरीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शङ्कराय च मयस्कराय च नमः शिवाय च शिवतराय च नमः श्रीक्ष्याय च ल्याय च नमः पार्याय च वार्याय च नमः प्रतरणाय चोत्तरणाय च नमः आधार्याय च लाद्याय च नमः शिष्याय च भेन्याय च नमः शिखत्याय च प्रभात्याय च नम इरण्याय च प्रवक्षाय च नमः किविंशिराय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोत्याय च गृह्याय च नमः स्कल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेष्ट्याय च नमः पांसव्याय च रजस्याय च नमः शुष्ट्याय च हरित्याय च नमो लोप्याय चोलभ्याय च नमः पूर्व्याय च शूर्याय च नमः पन्याय च पन्नशद्याय च नमोपगुरमाणाय च विघ्नते च नमार्थिदते च प्रक्षिदते च नमो वक्किरिकेभ्यो देवानागुं हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नमः आनिर्हतेभ्यो नमः आमीभत्केभ्यः द्रावे अन्धसस्पदे दरिद्रम् नीरलोहिता येषाम् पुरुषाणामेषाम् पशूनाम् माभेर्मा रोमो येषाम् किञ्चनामय याते रुद्रशिवा तनु शिवा विश्वाः भेषजी शिवा रुद्रस्य भेषजीतया नो मृणजीवशे इमागुम् रुद्राय तव शेखपद्दिने क्षयद्वीराय प्रभरामहे मतिम् यथा नश्यमसद्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन्नलादुरम् मृणानो रुद्रोतनोमयस्कृतिक्षयद्वीराय नमसा विधेमते यच्छम् जयोऽस्य मनुराय ये पिता तदस्यामतव रुद्रप्रणीतौ मानो महान्तमुदमानो अर्भकम् मानमुक्षन्तमुदमानमुक्षितम् मानो वधीः पितरम् नोद मातरम् प्रियामानस्तनुवो रुद्ररीरिषः मानस्तोकेतन ये मान आयुषि मानो गोषु मानो अश्वेषुरीरिषः वीरान्मानो रुद्रभामितो वधीर्हविष्मन्दो नमसा विधेमते आराध्ये गोघ्नभुतपूरुषघ्ने क्षयद्वीराय सुन्नभस्मेते अस्तु रक्षाजनो अधिजदेव ब्रूह्यथा जनः शर्म यच्छद्विबर्हाः सुहि श्रुतम् गप्तसदम् युवानम् मृगम् न भीममुपहत्नुमुग्रम् मृणाजरित्रे रुद्रस्तवानो अन्यन्ते अस्मन्निव पन्तु सेनाः परिणो रुद्रस्य भेतिर्वृणक्तुपरि त्वेषस्य दुर्मतिरघायो अवस्थिर मघवद्यस्वनुष्वमीध्वस्तोकायतनयाय मृणया मीरुष्टम शिवतम शिवो न सुमना भव परमे वृक्ष आयुधम् निधाय कृत्तिम् वसा न आचर पिनाकम् बिभ्रदागहि विगिरित विलोहित नमस्ते अस्तु भगवः यास्ते सहस्रगुम् हेतयोन्यमस्मन्निव पन्तुताः सहस्राणि सहस्रधा बाहुवोस्तव हेतयः तासामीशानो भगवः पराचीनामुखाकृति सहस्राणि सहस्रशो ये रुद्राधिभूम्याम् एषागुम् सहस्रयो जने वदन्वारि तन्मसि अस्मिन्महत्यन्नवेऽन्तरिक्षे भवाभि नीलग्रीवाश्चिकण्ठाः सर्वा अधः क्षमाचराः नीलग्रीवाश्चिकण्ठादिवगुम् रुद्रावुपस्विराः ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ये भूतानामधिपतयो विशिखासक्रपद्दिनः ये अन्येषु विविध्यन्ति पात्रेषु पिबतो जनान् ये पथाम् प्रतिरक्षय ऐनभुदायव्युधः ये दीर्घानि प्रचरन्ति सुग्रामन्तोरिषङ्गिणः य एतावन्तश्च भूयागुंसश्च दिशो रुद्राविदस्थिरे तेषागुम् सहस्रयो जने वधन्वानि तन्मसि नमो रुद्रेभ्यो ये पृथिव्याम् येऽन्तरिक्षे ये दिवि येषामन्नम् वातो वर्षमिषभस्तेभ्यो दश प्राचीर्दश दक्षिणादश प्रतीचीर्दशोदीचीर्दशोध्वास्येभ्यो नमस्ते नो मृणयन्तु तेयम् भीष्मो यश्च नो द्वेष्टितम् भोजम् भे दधामि यजम्बकम् यजामहे सुगन्धिम् पुष्टिवर्धनम् उर्वारुकविभवन्धना नृत्योर्मुक्षीयमामृतात् यो रुद्रो अग्नौ यो अप्सुयमोषधीषु यो रुद्रो विश्वाभुवना विवेश तस्मै रुद्राय नमो अस्तु तमुष्टु हियस्विशुश्रुधन् वायो विश्वस्य क्षयति भेषजस्य यक्ष्वामहेशौः मनसाय रुद्रम् नमोभिर्देवमसुरम् दुवस्य अयम् मे हस्तो भगवानयम् मे भगवत्तरः अयम् मे विश्वभेषयोऽयम् शिवाभिवर्षणः एते सहस्रमयुतम् पाशामृत्योमर्त्यायहन्त मे ताम् यज्ञस्य मायया सर्वा नव यजामहे मृत्यवे स्वाहा मृत्यवे स्वाहा ॐ नमो भगवते रुद्राय विष्णवे मृत्युर्मे पाहि प्राणानाम् ग्रन्थिरसि रुद्रोपाविशान्तकः तेनान्नेनाप्यायस्व नमो रुद्राय विष्णवे मृत्युर्मे पाहि मामुच्युन्नश्यत्वायुर्वर्धताम् ॐ शान्तिः शान्तिः शान्तिः।